अथ शान्तिकरणम्। ओम शन्न इन्द्राग्नि भवतामहो भीषन्न इन्द्रा वरुणारातहव्या शमिन्द्रा सोमा सुविताय शय्यो शन्न इन्द्रा पूषणा वाजसातौ। ओम शन्नो भग शमुना सन्तु वस्तु शन्न पुरन्धि शमु सन्तु रायः शन्न सत्यस्य सुयमस्य शंस शन्नो अर्यमा पुरुजातु अस्तु। ओम शन्नो धाता शमु धर्ता नो अस्तु शन्न उरुचि भवतु स्वदाभिः शं रोदसी प्रियति शन्नो अद्रि शन्नो देवानां सुभवानि सन्तु। ओम शन्नो अग्निर्ज्योतिरनीको अस्तु शन्नो मित्रा वरुणावश्विनाशम् शन्न सुकृतां सुकृतानि सन्तु शन्न इशिरो अभिवातु वातः। ओम शन्नो द्यावा पृथिवी पूर्वभूतौ शमन्तरिक्षम् दिशयेनो अस्तु शन्न ओषधिर्वनिनो भवन्तु शन्नो रजसस्पतिरस्तु जिष्णु। ओम शन्न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणासु शंसः शन्नो रुद्रो रुद्रेभिर्जलाशः शं नस्त्वष्टाग्नाभिरिहस्विणोतु। ओम शन्न सोमो भवतु ब्रह्म शन्न शन्नो ग्रावाण शमु सन्तु यज्ञः शन्न स्वरूणामितयो भवन्तु शन्न प्रश्वसं वस्तु वेदिः। ओम शन्न सूर्य उचक्षा उदेतु शं नश्चतस्र प्रदिशो भवन्तु शन्न पर्वता ध्रुवयो भवन्तु शन्न सिन्धव शमु सन्त्वापः। ओम शन्नो अदितिर्भवतु प्रतिभिः शन्नो भवन्तु मरुतः स्वर्का शन्नो विष्णु शमु पूषा नो अस्तु शन्नो भवित्रम् शं वस्तु वायुः। ओम शन्नो देव सवितात्रायमाण शन्नो भवन्तु शशो विभाति शन्न पर्जन्यो भवतु प्रजाभ्य शन्न क्षेत्रस्य पतिरस्तु शम्भु। ओम शन्नो देवा विश्वदेवा भवन्तु शं सरस्वती सदेभिरस्तु शमभिषा च शमुरातिषा च शन्नो दिव्या पार्थिवा शन्नो अप्या। ओम शन्न सत्यस्य पतयो भवन्तु शन्नो अरवन्तः शमु सन्तु गावः शन्न हरिभव सुकृता सुहस्ता शन्नो भवन्तु पितरो हवीषु। ओम शन्नो अजयेकपादेवो अस्तु शन्नो यैर्बुध्न्यः शं समुद्रः शन्नो अपानपातेरुरस्तु शन्न पृष्णिर्भवतु देवगोपा। ओम इन्द्रो विश्वस्य राजते शन्नो अस्तु द्विपदे चतुष्पदे। ओम शन्नो वातः पवतां शं नस्तपतु सूर्यः शन्नः कनिक्रदद्देवः पर्जन्यो अभिवर्षतु। ओम आहानि शं भवन्तु नः शं रात्रिः प्रतिधीयताम् शन्न इन्द्राग्नि भवतामवोभिः शन्न इन्द्रा वरुणारातहव्या शन्न इन्द्रा पूषणा वाजसातौ शमिन्द्रा सोमा सुविताय शय्योः। ॐ शन्नो देवी अभिष्टय आपो भवन्तु पीतये शय्योरभिस्रवन्तु नः। ओम द्यौ शान्तिरन्तरिक्षम् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्वम् शान्तिः शान्तिरेव शान्तिः सामा शान्तिरेधि। ओम तच्चक्षुर्देवहितं पुरस्तात् शुक्रमुच्चरत् पश्येम शरद शतं जीवेम शरद शतं शृणुयाम शरद शतं प्रब्रवाम शरद शतमदीना स्याम शरद शतं भूयस्य शरद शतात्। ओम यज्जाग्रतो दूरमुदयति दैवं तदुसुप्तस्य तथैवैति दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु। ओम येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदधेषु धीराः यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिव सङ्कल्पमस्तु। ॐ यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु यस्मान्नरिते किञ्चन कर्म क्रियते तन्मे मनः शिव सङ्कल्पमस्तु। ॐ येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् येन यज्ञस्तायते सप्तहोता तन्मे मनः शिव सङ्कल्पमस्तु। ॐ यस्मिन्द्रिचः सामयजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवारः यस्मिश्चित्तम् सर्वमूतम् प्रजानाम् तन्मे मनः शिव सङ्कल्पमस्तु। ॐ सुषारथिरश्वानि वयन्मनुष्यान्ने नीयते भीषु विवाजिन इव हित्प्रतिष्ठम् यदजिरम् जविष्टम् तन्मे मनः शिव सङ्कल्पमस्तु। ॐ स नः पवस्वशम् गवे शं जनाय शमर्वते शं राजन्नोषधीभ्यः ॐ अभयम् नः करत्यन्तरिक्षमभयम् द्यावा पृथिवी उभे इमे अभयम् पश्चादभयम् पुरस्तादुत्तरादधरादभयम् नो अस्तु। ॐ अभयम् मित्रादभयममित्रादभयम् जातादभयम् परोक्षात् अभयम् नक्तमभयम् दिवानः सर्वा आशा मम मित्रम् भवन्तु। इति शान्तिकरणम्।